सर्वेषां नमस्कारः. अस्मिन् वर्गे सर्वेषां स्वागतम्. गतवर्गे वयं द्वितीयविभक्तिविषये अधिकं पठितवन्तः, चर्चाम् अपि कृतवन्तः अकर्मकधातु सकर्मकधातुविषये. इदानीं किञ्चित् अग्रे गच्छामः. इदानीम् अहं शेर् कृतवती, विभक्तिवलरी पुस्तकम् अहं शेर् कृतवती, दृश्यते वा?
नमस्कारः भगिनि.
प्रगति भगिनी, पद्मिनी भगिनी, स्वागतम्. आम् स्वागतं भगिनि.
ऐ कम् लेट्, ऐ विल्.
चिन्ता मास्तु भगिनि,
जस्ट् फैव् मिनिट्स्, फैव् मोर् मिनिट्स् ऐ विल् कम् बेक्.
चिन्ता मास्तु, अस्तु भगिनि, अस्तु. धन्यवादः. इदानीं तृतीय पुटे वयं पठामः. अस्तु, सर्वे दृश्यते किल विभक्तिवरदी पुस्तकम्? समीचीनम्, धन्यवादः. अधः स्थि, क्षम्यतां भगिनि, इदानीं दृश्यते वा?
आं भगिनि.
राधिका भगिनी अस्ति वा?
आं भगिनि.
पठति वा भगिनि?
आं भगिनि. अधः स्थितानि वाक्यानि पठत. सः पाठं पठति. सः, यु वाण्ट् मी टु,
केवलं एकवारं पठतु कृपया.
सः पाठं पठति. सः पाठं पठितवान्. सः पाठं पठिष्यति. सः पाठं पठतु. सः पाठं पठित्वा गृहं गतवान्. सः पाठं पठितुं पुस्तकं स्वीकृतवान्. सः पाठं विलिख्य लिखित्वा गृहं गतवान्. सः पाठं पठन् निद्रां कृतवान्.
अस्तु, समीचीनम्. अत्र वाक्य अष्टवाक्यानि सन्ति. अस्तु, अष्टवाक्येषु किं पदं समानम्?
पाठम् इति समानम्.
पाठं कीदृशं?
पाठं समानम्.
का पाठमिति शब्दस्य विभक्तिः?
शब्दं समानम् अस्ति.
आम्, पाठमिति शब्दः विभक्तिः का? शब्दस्य विभक्तिः का?
पाठं विभक्तिः कर्मपदं, सो द्वितीया विभक्तिः.
समीचीनम्. अस्तु, प्रथमवाक्ये सः पाठं पठति. किं कालं सूचयति? कालः कः? कालः कः?
वर्तमानकाल, लट्लकार.
समीचीनं, सः पाठं पठति, सरलवाक्यं किल. सः पठति, सः पठति अपि भवितुम् अर्हति. सः किं पठति चेत् सः पाठं पठति. अस्तु, वर्तमानकालः. अनन्तरम् अग्रिमवाक्यं,
सः पाठं पठितवान्.
अस्तु, अत्र कालः कः एतस्मिन् वाक्ये?
कालः भूतकाल.
समीचीनं, तत् समीचीनं.
तव तु प्रत्ययः.
पठितवान् प्रत्ययः, समीचीनम्. अस्तु, प्रथमवाक्यं वर्तमानकालः, द्वितीयवाक्यं भूतकालं सूचयति. आम्, तृतीयवाक्यं?
तृतीय, सः पाठं पठिष्यति. तृतीयवाक्यं भविष्यकालं सूचयति.
समीचीनम्. प्रथमवाक्ये पठति इति अस्ति क्रियापदं, द्वितीयवाक्ये पठितवान् इति भूतकालं सूचयति, तृतीयवाक्ये क्रियापदं पठिष्यति इति वर्तमानकाल भविष्यत्कालं सूचयति. समीचीनम्. अस्तु, चतुर्थवाक्ये?
चतुर्थवाक्यं, सः पाठं पठतु लोट् लकारम्, आज्ञा प्रार्थनारूपं.
समीचीनं,
लोट् लकारं सूचयति.
समीचीनम्. अग्रिमं,
सः पाठं पठित्वा गृहं गतवान्. पठित्वा त्वान्तरूपम् अस्ति. पठित्वा गृहं गतवान्
त्वान्तरूपम् उपयुज्य एकं वाक्यं वाक्यं रचितवन्तः. केवलं सः पाठं पठित्वा गृहं गतवान्. समीचीनम्. अग्रे
सः पाठं पठितुं पुस्तकं स्वीकृतवान्. पठितुं तुमुन् प्रत्ययः
तुमुन् प्रत्ययः उपयुज्य
वाक्यं रचितवान्.
समीचीनम्. अग्रे
सः पाठं लिखित्वा गृहं गतवान्. दिस् इस् लेफ्ट् लिखित् विलिख्य इस् लेफ्ट् लेफ्ट् प्रत्ययः.
लिखित्वा अस्ति चेत् त्वान्तरूपं, विलिख्य अस्ति चेत्
लेफ्ट्रूपं.
समीचीनम्. एतस्मिन्
उपसर्ग अस्ति
अतः आम् समीचीनम् षष्टमवाक्ये सः पाठं पठितुं पुस्तकं स्वीकृतवान्. सप्तमवाक्यम् अस्ति सः पाठं लिखित्वा गृहं गतवान् इति अस्ति. अत्र क्रियापदं किम्?
गतवान्.
तस्य कर्मपदं
गृहम्.
आम्. क्रियापदरूपं
विलिख्य.
तस्य कर्मपदं
पाठम्.
समीचीनं, बहु समीचीनम्. अग्रे पठतु कृपया.
सः पाठं पठन् निद्रा कृतवान्. पठन् इस् शतरन्तरूपम्.
समीचीनं. पुल्लिङ्गं वा
स्त्रीलिङ्गं? प्रेसेंट कंटीन्यूअस्.
आम् समीचीनं. पुल्लिङ्गं वा स्त्रीलिङ्गं वा नपुंसकलिङ्गं वा?
दिस् इस् पुल्लिङ्गं. सः पाठं पठन्
पुल्लिङ्ग शत्रन्तरूपं.
पुल्लिङ्ग शत्रन्तरूपं.
समीचीनं. अस्तु, तादृशमेव अग्रिमपुटे अस्ति अभ्यासः. कविः श्लोकं लिखति इति प्रथमवाक्यम् अस्ति. पूर्वस्मिन् पुटे कथमस्ति सः पाठं पठति, वर्तमानकालः, भूतकालः, भविष्यत्कालः अस्ति किल, तादृशक्रमेण एतद् वाक्यमपि लेखनीयम्. कविः श्लोकं लिखति.
कविः श्लोकं लिखति वर्तमानकालः. कविः श्लोकं लिखितवान् भूतकालं.
समीचीनम्.
कविः श्लोकं लेखिष्यति.
समीचीनम्. भविष्यत्काले बहु समीचीनं भगिनि. तादृशमेव गृहपाठरूपेण एतानि वाक्यद्वयम् अस्ति किल, तत् कुर्मः गृहपाठरूपेण. सुलभः एव भवति. अस्तु, धन्यवादः भगिनि.
धन्यवादः.
सविता भगिनी अग्रे पठति वा? न भगिनि, तद्वयं गृहपाठरूपेण कुर्मः. पुटसङ्ख्या पञ्च. आवरणे
दत्तानां उचितानि रूपाणि
एकनिमिषः भगिनि. यस्, इस् देर् एनिबडि हू वाण्ट्स् टु से समथिङ्ग्?
नो भगिनि, ऐ वाण्टेड् टु आस्क् यू टु मेक् इट् बिगर्. यू हेव् मेड् इट् बिगर्, सो इट्स् ओके.
अस्तु, ओके. केन् आल् आफ़् यू प्लीस् म्यूट् एक्सेप्ट् सविता भगिनी, बिकास् देर् इस् लाट् आफ़् डिस्टर्बेन्स् फ्रम् अदर्. If you have unmuted, then there's a lot of disturbance. Yeah, thank you. No, it's clear now. Na, Savita Bhagini, patatu krupaya.
Avarane dattanam shabdanam uchitani rupani rikte stale likata. Are you able to hear me?
Yeah, but the voice is breaking, Bhagini. Yeah, I'm able to hear, but the voice is breaking. Samichinam nasti. Is there any... No, Bhagini. Still the voice is breaking. Bhagini, in the meantime, could you want to just set something correct? I can take a turn with other people. In the meantime, can you just adjust yourself if there's anything that you could do? Dhanyavadha, Bhagini. Dhanyavadha. Can you please mute, Bhagini? Yeah, thank you. Madhu, Bhagini?
आं भगिनि
पठति वा कृपया
आं भगिनि आवरणे दत्तानां शब्दानाम् उचितानि रूपाणि
अदु भगिनि एकनिमिषः सविता भगिनी लैन् इस् म्यूटेड् सविता भगिनी केन् यु प्लीस् म्यूट् युर् लैन् हव् यु म्यूटेड्
इट्स् नाट् इट् म्यूटेड्
ऐ कुड् हियर् सम् बेक्ग्रौण्ड्
Now it is muted, Bhagini.
Okay. Dhanyavada.
Avarane dattanam shabdanam uchitani rupani rikte stale likat.
Likata.
Udaharanam. Udaharana.
Bhagini, ekanimishah. Atra, avarane iti asti kila?
Aam, Bhagini.
Vibhakti hi ka?
सप्तमी विभक्ति
बहु समीचीनम् आवरणम् इति नपुंसकलिङ्गशब्दः अस्ति आवरणे सप्तमी विभक्तिरूपं दत्तानां शब्दानां षष्टिविभक्ति बहुवचनं वयं न पठितवन्तः उचितम् उचितम् इति नपुंसकलिङ्गशब्दः अस्ति उचितानि बहुवचनरूपं नपुंसकलिङ्गशब्दः बहुवचनरूपम् उचितानि रूपाणि रिक्ते स्थले सप्तमी रूपं सप्तमी विभक्तिः लिखत लिखत इति क्रियापदम् अस्ति कर्म तस्य कर्तृपद कर्ता का कर्तृप कर्ता का कर्तृपदं किं भवितुम् अर्हति अस्तु लिखामि इति क्रियापदम् अस्ति इति स्वीकरोतु लिखामि इति अस्ति चेत् कर्ता का कर्तृपदं किं भवितुम् अर्हति समीचीनं वाट् डु यु थिङ्क् विल् बि द सब्जेक्ट् लिखामि इति क्रियापदम् अस्ति चेत् लिखामि
लिखामि मीन्स् उत्तमपुरुष
समीचीनं वाट् इस् द सब्जेक्ट् वाट् वुड् वाट् विल् बि द सब्जेक्ट् देयर्
सब्जेक्ट् इस् वि लैक् ऐ ऐ
ऐ राइट् सो वाट् विल् यु से ऐ इन् संस्कृतम्
अहम्
अहम् इस् द कर्तृपदं यु आर् द कर्तृपदम्
ओके भगिनी
यु आर् द कर्ता राइट् यु आर् द कर्ता यु आर् द डूयर्
Yes, yes.
अहं इस् लिखामि इति अस्ति पठामि इति अस्ति चेत् कः पठति अहं पठामि अहं लिखति इति अस्ति चेत्
मध्यमपुरुष
यु मीनिङ्ग् संस्कृते कथं भवति सः लिखति सा लिखति एषः लिखति एषा लिखति इति भवितुम् अर्हति किल तदेव कर्ता भवति आम् अत्र लिखत इति अस्ति लिखत अस्ति चेत् यूयं वयं वयम् इति तादृशं वयम् इति शब्द त्वं युवां यूयम् इति अस्ति किल त्वं नाम यु त्वं युवां नाम द्विवचनरूपे युवां यूयं नाम बहुवचनरूपे यूयम् त्वं शब्दस्य बहुवचनरूपं यूयम् त्वं नाम
यू
यू समीचीनं तस्य बहुवचनरूपं
यूयं
यूयं यूयं
यूयं
आम् अहम् अहम् इति प्रथमाविभक्ति एकवचनरूपम् अहं समीचीनम् तस्य बहुवचनरूपं
वयं
वयं बहु समीचीनं सः इति एकवचनरूपं तस्य बहुवचनरूपं
ते
आम् बहु समीचीनं तादृशमेव त्वम् इति एकवचनरूपम् एकवचनरूपम् अस्ति प्रथमाविभक्तिरूपं तस्य बहुवचनं यूयम् इति अस्ति अत्र लिखत इति अस्ति चेत् कः लिखत लिखत यूयं लिखत यूयम् इस् अ कर्ता बहुवचनरूपं समीचीनम् अग्रे पठतु इदानीं
सः प्रातः पत्रिकां कवितां यन्त्रं च पठति
ग्रन्थम् इति अस्ति किल भगिनि ग्रन्थं किल
ग्रन्थं ब्राकेट् ग्रन्थः
समीचीनं तादृशमेव अग्रे अपि अग्रिमवाक्यानि अपि करोतु कृपया
रमेशः प्रतिदिनं देवः जनकः अग्रजः आचार्यः च नमस्करोति रमेशः प्रतिदिनं
देवः शब्दस्य कर्म द्वितीयविभक्तिरूपं
देवं जनकं अग्रजम् आचार्यं च नमस्करोति
अत्र कर्मपदानि कर्मपदरूपं कति सन्ति
फैव् भगिनि पञ्च सन्ति
केवलं चतुर्थ कर्मपद चत्वारि कर्मपदानि एव सन्ति इति स्वीकरोतु देवं जनकम् अग्रजम् आचार्यम्
प्रतिदिनं इस् आल्सो कर्मपदं
कर्मपदं तादृशं नास्ति तस्य विषये अनन्तरं पठामः कर्मपदं रूपे न भवति इदानीं त्यजामः इदानीं केवलं कर्मपदविषये पठामः रमेशः प्रतिदिनं
देवं जनकम् अग्रजम् आचार्यं च नमस्करोति
समीचीनम् अग्रे
सीता ग्रन्थः सुधाखण्डः स्यूतः दण्डः च नयति सीता ग्रन्थं सुधाखण्डं स्यूतं दण्डं च नयति
बहु समीचीनं
फोर् कर्मपदं
चत्वारि कर्मपदानि सन्ति
सेवकः आम्रः पनसः नारिकेलः च सिञ्चति सेवकः आम्रं पनसं नारिकेलं च सिञ्चति
सिञ्चति नाम सिञ्चति क्रियापदमस्ति किल अत्र सिञ्चति नाम स्प्रिङ्कल्स् आर् वाटर्स् इति अर्थः भवति सेवकः सेवकः नाम सर्वण्ट् सेवकः आम्रं फनसं नारिकेलं च सिञ्चति वाटर्स् समीचीनं
रामः दशरथः सुमन्त्रः वसिष्ठः च नमस्कृतवान् रामः दशरथं सुमन्त्रं वसिष्ठं च नमस्कृतवान्
समीचीनम् अवगच्छति किल भगिनि अर्थः अवगच्छति किल
अवगच्छामि भगिनि अवगच्छामि
अग्रे अपि पठतु
सज्जनः धर्मः परोपकारः सदाचारः च इच्छति सज्जनः धर्मं परोपकारं सदाचारं च इच्छति
बहु समीचीनं बहु सुन्दरमस्ति किल वाक्यानि बहु सुन्दरमस्ति
वेरि नैस् भगिनि इट्स् वेरि इन्वाल्विङ्ग्
धन्यवादः
भगिनि No, Bhagini, I just wanted to... I was reading the next sentence.
Oh, so, अत्रैव क्लीव्लेण्ड् माधवी भगिनी अपि अस्ति किल चिन्ता मास्तु भगिनि पठति वा इदानीम्
आं भगिनि पञ्चमवाक्यं
आमामां षष्टमवाक्यं
भगिनी आपणतः माला पत्रिका पादरक्षा स्थालिका च आनीतवती भगिनी आपणतः मालां पत्रिकां पादरक्षां स्थालिकां च आनीतवती
समीचीनं
अग्रिमवाक्यं पठामि
पठतु कृपया
बालकः लेखनी अङ्कनी कादम्बरी सूची च क्रीतवान् बालकः लेखनीम् अङ्कनीं कादम्बरीं सूचीं च क्रीतवान्
समीचीनं
माता स्यूतः युतकं वेष्टी शाटिका च क्षालितवती माता स्यूतं युतकं वेष्टीं शाटिकां च क्षालितवती
समीचीनं अग्रे अपि
can you scroll up
क्षम्यताम् आम् 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 एकनिमिषः क्षम्यताम् एकनिमिषः अधिकं स्क्रोल् कृतवती इदानीं पठितुं शक्नोति वा
आमां भगिनि अहं कोलाहलः कलहः चर्चा आलस्यं च न इच्छामि अहं कोलाहलं कलहं चर्चाम् आलस्यं च न इच्छामि
समीचीनम् अवगच्छति किल भगिनि
आं भगिनि कादम्बरी
कादम्बरी इति एकः कथायाः नाम नावल् इति अस्ति वदामः किल आङ्ग्लभाषायां तस्य नाम अस्ति कादम्बरी इति तद् बहु फेमस् कन्नडभाषायाम् अतः इदानीन्तनकाले यदा कादम्बरी इति नामस्य कथा प्रसिद्धः भवति तस्य अनन्तरं सर्वदा नावल् इति स्थाने कादम्बरी कादम्बरी इति जनाः वदन्ति कादम्बरी नाम नावल् धन्यवादः अवगच्छति किल भगिनि प्रश्नः अस्ति वा
I missed the beginning atra like we have
couple putte vayam patita aarambham krutavantah
aam bhagini
atritiya putte vadatu bhagini
atra kolahalam kalaham charcham aalasyam yete sarve dvitiya vibhaktau santi
aam bhagini कोलाहलः नाम कोलाहलं कोलाहलं कलहं चर्चाम् आलस्यं च न इच्छामि कोलाहलः नाम कन्फ्यूशन् कलहः नाम क्वारल्स् चर्चा इति स्त्रीलिङ्गशब्दः अस्ति तस्य नाम आर्ग्युमेण्ट्स् आलस्यम् इति नपुंसकलिङ्गशब्दः भवति अकारान्तनपुंसकलिङ्गशब्दः भवति तस्य द्वितीयविभक्तिरूपमपि आलस्यमेव आलस्यं नाम लेजिनेस् न इच्छामि इति वाक्यमस्ति धन्यवादः. अस्तु, धन्यवादः भगिनि. रविमहोदय पठति वा अग्रे?
आं भगिनि. टेन्त् वन् रैट्. अहं गणेशः दुर्गा सरस्वती लक्ष्मीः च पूजयामि. अहं
भगिनि, यु हाव् टु चेञ्ज् द पेज्. द पेज् इस् स्टिल् देयर्.
या, ऐ डिड् चेञ्ज्. ऐ थिंक् इट् विल् टेक् अ कपल् आफ् सेकेण्ड्स् टु रिफ्लेक्ट् देयर्. Just let me know if it's not appearing there.
It has changed, Bhagini.
Changed, right? Okay, okay. Yeah. Mm-hmm. For different people, it's taking different time.
Yeah.
For some people, in 1 second, some people in 5 seconds. Yeah, I understand.
Aham, Bhagini.
Ah, it's okay. Yeah. Ah, okay.
Okay. Aham, Ganesham, Durgayam.
Aha. Dvitiya Vibhakti Rupam. केवलम् अम् एव अस्ति. अहं गणेशं
दुर्गां
आम्
सरस्वतीं
सरस्वतीं
लक्ष्मीं
लक्ष्मीं
च पूजयामि.
अवगच्छति वा महोदय कथं वाक्यस्य अर्थः? समीचीनम्. अस्तु,
ओके. नेक्स्ट् वन्, गोविन्दः जनाः आपणाः दीपाः वृक्षाः च पश्यति. गोविन्दः
अत्र ध्यानम् आवश्यकम्. एतस्मिन् वाक्ये ध्यानम् आवश्यकं. सावधानेन दृष्ट्वा वदतु. गोविन्दः
गोविन्दः
एकनिमिषः महोदय. एतस्मिन् पुटे अन्ते पश्यतु. एतस्मिन् पुटे अन्ते पश्यतु. एकः कोष्टकम् अस्ति किल? कोष्टकस्थानि रूपाणि स्मरत इति अस्ति. एकवारं तत् पठामः, अनन्तरं एतद् वाक्यं करोतु कृपया. पठतु कृपया अकारान्तः. अत्र एतस्मिन् कोष्टके पुल्लिङ्गशब्दः, स्त्रीलिङ्गशब्दः, नपुंसकलिङ्गशब्दः इति अस्ति. तत्र तस्य अन्ते एकवचनं, बहुवचनं. पुल्लिङ्गशब्दस्य एकवचनं, बहुवचनं. स्त्रीलिङ्गशब्दस्य एकवचनं, बहुवचनं. नपुंसकलिङ्गशब्दस्य एकवचनं, बहुवचनम् इति अस्ति. प्रथमस्तम्भे अकारान्तः इति अस्ति. अकारान्त पुल्लिङ्गशब्दः इति अस्ति. उदाहरणार्थं बालः इति शब्दः अस्ति, स्वीकरोतु. बालः इति शब्दस्य कर्मपदरूपं कथं भवति? द्वितीयविभक्तिरूपं कथं भवति? एकवचनरूपं
बालं.
बालं, बालः शब्दस्य द्वितीयविभक्तिरूपम् एकवचनरूपं बालं. बहुवचनरूपं
बालान्.
समीचीनं. तादृशमेव अकारान्त नपुंसकलिङ्गशब्दस्य एकवचनरूपं द्वितीयविभक्तिरूपम्.
ओके, पुस्तकम्.
प्रथमविभक्ति पुस्तकं भवति, द्वितीयविभक्ति अपि पुस्तकमेव भवति. पुस्तकं, पुस्तकानि. आम्, समीचीनम्. इदानीं प्रथमस्तम्भे द्वितीयम् अस्ति आकारान्त स्त्रीलिङ्गशब्दः. स्त्रीलिङ्गशब्दः
बालिका.
बालिका इति शब्दः अस्ति.
द्वितीयविभक्तिरूपं बालिकां.
बालिकां बहुवचनरूपं?
बहुवचनरूपं रूपं बालिकाः.
समीचीनं.
इकारान्तः स्त्रीलिङ्गशब्दः लेखनी. लेखनी इति शब्दस्य द्वितीयविभक्तिः लेखनीम्. बहुवचनरूपं लेखनीः.
समीचीनं. महोदय, पुनः एकवारम् अकारान्तविषये एकैकशः पठितुं शक्नोति वा कृपया? एकवारं पुनः एकवारम्.
अकारान्तः पुल्लिङ्गशब्दः बालः इति द्वितीया विभक्तिः बालम् तस्य बहुवचनरूपं बालान्
समीचीनम् महोदय इति एकवारं रामः इति शब्दः अस्ति स्वीकरोतु रामशब्दः तस्य
रामः रामं रामान्
समीचीनम् एकवारं वृक्षः
वृक्षः वृक्षं वृक्षाम्
आपणः
आपणः आपणम् आपण
आम् समीचीनम्
आपणान्
आपणान् तदेव समीचीनम् अस्तु अग्रे
पुस्तकं रा पुस्तकः इति
पुस्तकः न
सारी पुस्तकम्
प्रथमविभक्ति अपि पुस्तकमेव
नपुंसकलिङ्गशब्दस्य तृतीया विभक्तिः पुस्तकम् एण्ड् बहुवचनरूपाणि पुस्तकानि बहुवचनरूपं पुस्तकानि
समीचीनं ग्रन्थम् अस्ति चेत्
ग्रन्थं ग्रन्थम् इति द्वितीया विभक्तिः एण्ड् बहुवचनरूपं ग्रन्थानि
अनन्तरं गृहं
गृहं गृहं गृहम् इट्सेल्फ् एण्ड् बहुवचनरूपाणि
बहुवचनरूपं
बहुवचनरूपं गृहाणि
आम् आं महोदय सत्यं सत्यं समीचीनमेव
गृहं गृहं गृहाणि
समीचीनं समीचीनम् अस्तु फलं
फलं फलानि
समीचीनं समीचीनम् अस्तु अग्रे पठतु कृपया आकारान्तः
ओके आकारान्तः स्त्रीलिङ्गशब्दः बालिका तस्य द्वितीया विभक्तिः बालिकां एण्ड् बहुवचनरूपं बालिकाः
इदानीं सम्यक्तया स्मरणीयं कथं बालकः अस्ति चेत् बालकः अस्ति चेत् कथं भवति
बालकः इस् बालकम् एण्ड् बालकान्
समीचीनं पुनः वदतु कृपया बालकः अस्ति चेत्
बालकं बालकान्
समीचीनं तादृशमेव स्त्रीलिङ्गशब्दः अस्ति आकारान्त स्त्रीलिङ्गशब्दः बालिका अस्ति कथं भवति
बालिकां बालिकाः
बालिकां बालिकाः इति भवति पुस्तिका इति अस्ति कथं भवति
पुस्तिकां पुस्तिकाः
पत्रिका अस्ति
पत्रिकां पत्रिकाः
बहु समीचीनम् अग्रे पठतु कृपया
इकारान्तः स्त्रीलिङ्गशब्दः लेखनी तस्य द्वितीया विभक्तिः लेखनीं बहुवचनरूपं लेखनीः
अङ्कनी अस्ति चेत्
अङ्कनीम् अङ्कनीः
नदी अस्ति चेत्
नदीं नदीः
बहु समीचीनम् इदानीम् अग्रे पठतु गोविन्दः एकादशवाक्यम्
ओके गोविन्दः जनाः आपणाः दीपाः वृक्षाः च पश्यति गोविन्दः जनान्
आम् सत्यम्
आपणान्
समीचीनम्
दीपः इस् स्त्रीलिङ्गशब्दः
अत्र दीपः दीपाः इति प्रथमव्यक्तिरूपं दीपान्
दीपान् वृक्षान् च पश्यति
समीचीनं बहु समीचीनम्
ओके बट् नीता भगिनि नौ दीपा इट् केन् बि आल्सो ओके बट्
दीपा इति भवितुम् अर्हति परन्तु अत्र दीपः इति एव दत्तवन्तः दीपः दीपाः दीपा इति स्त्रीलिङ्गशब्दः अस्ति वा इति अहं सम्यक् न जानामि दीपा इति भवितुम् अर्हति, परन्तु अत्र दीपः दीपाः इति एव दत्तवन्तः.
Yeah, okay. Because I got confused. Because Deepa is also a name.
Idani atra sarvam pullinga shabdah eva.
Okay. Yeah.
Pullinga bahuvachana rupam dattavantah. Bhavan dvitiya vibhakti bahuvachana rupam dattavan. Bhavan. Samichinam mahodaya. Avagatavan kila idani?
Aam bhagini.
Dhanyavadah mahodaya. Agre Madhavi bhagini patati va?
Aam bhagini. Vayam Ganeshotsava Otsava गणेशोत्सव वासरे भगिन्याः जनन्यः महिलाः उद्योगिन्यः च गृहं प्रति आह्वयामः. वयं
अत्र पृथक्तया वदामः चेत् कथं वदामः चेत् गणेश उत्सव अवसरे गणेश उत्सव अवसरे मिलित्वा वदामः चेत् गणेशोत्सवावसरे
गणेशोत्सववासरे वयं गणेशोत्सववासरे भगिन्यां जनन्यां महिलाम् उद्योगिन्यां च गृहं प्रति आह्वयामः.
अस्तु, अत्र किञ्चित् सावधानम् आवश्यकं, ध्यानम् आवश्यकम्. अत्र भगिनी इति कीदृशशब्दः?
इकारान्त स्त्रीलिङ्ग.
अस्तु, कोष्टकं पश्यतु.
इकारान्त भगिनीं लेखनीम्.
अस्तु, समीचीनं. परन्तु अत्र किं दत्तवन्तः एतस्मिन् वाक्ये? एकवचनं
भगिन्यः एकवचनं दत्तवन्तः.
रविमहोदय सहायं करोति वा?
भगिन्यः अकारान्त भगिन्यः अकारान्त पुल्लिङ्गशब्दः अस्ति अस्ति वा भगिनि?
नदीशब्दस्य बहुवचनरूपं किं?
नद्यः.
आम्,
नदी नद्यः
भगिनीं.
किम् आवश्यकम् अत्र अस्ति? किम् आवरणे किं दत्तवन्तः तदेव तस्य परिचयमेव आवश्यकम् इदानीं.
भगिन्यः आवरणं भगिन्यः
भगिन्याः अस्ति चेत् षष्टिरूपं भवति. भगिन्यः अस्ति भगिन्यः अस्ति चेत् तस्य परिचयं पदपरिचयं करोतु.
भगिनी इकारान्त स्त्रीलिङ्ग भगिनी शब्द.
समीचीनम्, इदानीं समीचीनम्. अस्तु, सम्यक्तया चिन्तयति. अस्तु, तस्य बहुवचनं
भगिन्यः
नाम नदी नद्यः भगिनी भगिन्यः
भगिन्यः
जननी
जनन्यः
महिला
जनन्यः महिला.
अस्तु, अत्र किं दत्तवन्तः? भगिन्यः अस्ति चेत् किं दत्तवन्तः? भगिनी शब्दस्य भगिनी इति एकवचनरूपम् अस्ति, तस्य बहुवचन रूपम् अस्ति किल भगिन्यः अस्ति चेत्?
भगिन्यः, आं भगिनि.
नदी अस्ति चेत् तस्य बहुवचनरूपं किं? नद्यः. आम्, भगिनी इति एकवचनरूपं, भगिन्यः बहुवचनरूपम् अस्ति.
आं भगिनि.
जननी इति शब्दस्य बहुवचनरूपं?
जनन्यः.
आम्, महिला इति अस्ति, तस्य बहुवचनरूपं? लता इति अस्ति. लता शब्दस्य बहुवचनरूपं?
लताः.
महिला शब्दस्य बहुवचनं?
महिलाः.
बालिका शब्दस्य बहुवचनं?
बालिकाः.
उद्योगिनी इति शब्दस्य बहुवचनं?
उद्योगिन्यः.
आम्, अत्र आवरणे किं दत्तवन्तः? स्त्रीलिङ्गशब्दस्य बहुवचनरूपं दत्तवन्तः. आम्, तस्य द्वितीयविभक्तिरूपं किं? परिवर्तनं करोतु इदानीं.
महिलाम्.
आहा, नास्ति. कोष्टकं पश्यतु. इदानीमेव रविमहोदय अपि अभ्यासं कृतवान् किल.
स्त्रीलिङ्ग बहुवचन बालिकां, तत्
बालिकाम् एकवचनरूपं, बहुवचनरूपं
बालिकाः.
परन्तु कथं भवति, भवती महिलाम् इति वदति, किमर्थं महिलाम् इति वदति?
महिलाः. महिलां द्वितीयविभक्ति द्विवचनरूपं महिलाम्.
So I think you are confused, Bhagini. I will tell you once again. In the brackets, in the 12th sentence, Vayam Ganeshotsava Vasare Bhaginyah Jananyah Mahila Udyoginyah. Is there right in the brackets? What kind of a word is that they have given? All the Srilinga Shabdas, Bahuvachan Rupam they have given there.
Bhagini.
And you have to, that's in Prathama Vibhakti Rupam. प्रथमाविभक्ति बहुवचनरूपम्.
प्रथमाविभक्ति बहुवचनरूपम्. आं भगिनि.
एण्ड् वाट् इस् योर् टास्क् नौ? टु चेञ्ज् द प्रथमाविभक्ति बहुवचनं टु द्वितीयाविभक्ति बहुवचनं.
बहुवचनं, आं भगिनि.
रैट्? सो इफ् यु लुक् अट् द टेबल्, आकारान्तः स्त्रीलिङ्गशब्दस्य अन्ते किम् अस्ति? बालिकाम् इति एकवचनरूपम् अस्ति. बहुवचनरूपे किम् अस्ति? बालिकाः इति अस्ति किल.
आं भगिनि, बालिकाः.
सो वाट् शुड् यु बि लुकिङ्ग् अट् रैट् नौ? यु शुड् बि लुकिङ्ग् ओन्लि अट् द वर्ड्स् बालिकाः अण्ड् लेखनीः.
आं भगिनि.
ईकारान्तः शब्दः अस्ति चेत् बहुवचनरूपं लेखनीः विल् बि देर्. आकारान्त पुल्लिङ्गशब्द स्त्रीलिङ्गशब्दः अस्ति चेत् बालिकाः इति बहुवचनरूपम् अस्ति.
आं भगिनि.
So, taking these, just this two example, Balika and Lekani, iti shabdasya bahuvachan rupam, if you look at the sentence 12, apply that.
Bhaginyaha Jananyaha Mahila Yaha.
Bhagini, one second, I think something is confusing you. Yeah, so what is Bhagini, the Bahuvachan?
Because Mahilaha already there, right? So
right, Mahilaha is there. That is, now, the Prathama Vibhakti Bahuvachan like, is also Mahilaha. Dvitiya Vibhakti Bahuvachan also is Mahilaha.
Yeah, it's the same.
Samanameva.
I am confused, Bhagini.
Yeah. That's okay, Bhagini. So now I want you to understand Bhaginyah iti shabdyasya bahuvachanam, dvitiya vibhakti bahuvachanam katam bhavati.
Bhaginyah akaranta strilinga shabdah, tasya bahuvachanam bhaginyah.
No. Wait. Bhagini, one second. There is a lot of confusion. Well, can you just give me a second time? I will pull out that word document and I will type and show you.
Bhagini. Kshamyatam.
No problem, Bhagini.
Bhagini, you have given homework regarding this.
Right, that's why I'm pulling that word document. so that we can share it and I can show it to all of you. I'll bring that, Bhagini, once again. Yes, it is here. I'll share the document now. One second. Bhagini, are you able to see this?
Aam Bhagini.
Clear?
Aam Bhagini.
Are you able to see the screen, right?
Aam Bhagini.
Okay. Here? Astu. This is Abhyasam, remember Bhagini? Ramaha. Janaha, Janaha, Janakaha, Janakaha. These are all Pullinga Shabdaha. Right? So, next is Lata. Pratama Vibhakti. Lata, Lataha. Tasya Karmapada Rupam. Latam, Lataha. This Lataha, Lata Bahuvacha Rupam for Akaranta Pullinga Shabdaha. And Vithya Vibhakti Rupam, both are same.
Samanam
Eva. Idani Matra Pashyatu. Wait, I'm seeing. Atra Nagari is the Astikila Bhagini. Atra Dushyateva?
Nagari.
Nagari is the Asti. Patasya Vithya Vibhakti Rupam Katam Bhavati?
Nagarim.
Astu. Bahuvachana Rupam?
Nagarihi.
Nagarihi. Parvati iti asti chet?
Parvatim. Parvatihi.
Astu. Kashi.
Kashi, Kashim, Kashihi.
Right. So, this is a Divitya Vibhakti. Ikaranda. Srilinga Shabdaha Rupam Bhaginiya. This is a Ikaranta Srilinga Shabdasya Rupam. I think still there is some confusion, right?
Anna Bhagini, Eta Shabdameva, confused. I don't know.
1 minute, Bhagini. 1 second. I will try to share the Vibhakti table if possible. That might help you. 1 second.
भगिनी लेखनी दंगलन है
लेखनी
लेखनी ही
यही कारण तो
भगिनी भगिन्याम भगिनी ही
भगिन्या कारण तो भगिनी
Bhagini Ikaranta.
Bhagini.
So, Bhagini. Bhagini hi.
One second, Mahodaya. Just give me some time. I have it in the printed form, but I'm just looking if I have something that I can share here.
Bhagini.
Yes, Bhagini.
Aham avagatavati.
Astu. I was trying to share the Vibhakti table with you just to help you understand.
Aham Bhagini.
This week, when I'm as soon as this class is done, I will try to send you the Vibhakti table, and that will help you.
Aham. the beginning you shared
yes in the beginning I shared yes
Trilinga
yes Bhagini
everything I wrote it down no worries Bhagini I'll go through once again
Tata simple bagini
karan tamse ko
host I have found something I'm just sharing it now just a second it's taking time in the meantime we'll just go through this
okay.
I will share the vibhakti valari now You are able to see the Vibhakti Valari, right?
Not at all.
No, not yet. Okay. Yeah.
Okay.
Are you able to see this table that I am sharing here?
Bhagini.
Okay, Bhagini, this is a Vibhakti table, okay? So, look at the first one. Akaranta Pullinga Shabdaha, Rama Shabdaha.
Bhagini.
If you look at the first line, Ramaha, Tasya Bahuvachanam, Ramaha. Right?
Ramaha. Bhagini.
The second line is the sambodhanam, ignore that. In the dvitiya vibhaktihi is ramam and the bahuvachanam is rama. Right? Yastu. Are you able to see something that I shared now?
Bhagini. Ikaranta strilinga gauri.
Right. So look at the gauri. Gauri shabdasya bahuvachanam.
Gauri.
I'll make it bold. I will enlarge it now. One second. Drishyateva?
Bhagini.
Gauri shabdasya. Gauri shabdasya bahuvachana rupam?
Gauri, Gauriyai.
Bhagini, please ignore the dvivachanam. Whatever is there in the middle, it's dvivachanam. Ignore it. Kindly ignore it for now. Pratama vibhakti eka vachanam is Gauri.
Bhagini.
Tasya bahu vachanam?
Gauryaihi.
No.
Gauri, tasya bahu vachanam, Gauryai.
No.
Gau...
अहं चिन्तयामि न सम्यक् दृश्यते वा अथवा भवती
अत्र अहं दृश्यामि गौरीं गौरीः
प्रथमा विभक्ति गौरी अस्ति किल
गौरी
तस्य बहुवचनं किं तस्य बहुवचनमेव किं
गौर्यः
आम् इदानीमेव सम्यक्तया उक्तवती भवती गौरी इति प्रथमाविभक्ति एकवचनम् अस्ति तस्य बहुवचनं गौर्यः अस्ति
गौर्यः
इदानीं गौरीस्थाने नदी अस्ति चेत् स्वीकरोतु
नदी नद्यः
नदी नद्यः किल समीचीनम् अस्तु तादृशमेव भगिनी अस्ति चेत् कथं भवति
भगिन्यः
अङ्कनी अस्ति चेत्
अङ्कन्यः
समीचीनं लेखनी अस्ति चेत्
लेखन्यः
जननी अस्ति चेत्
जनन्यः
माधवी अस्ति चेत्
माधव्यः
आम् जयन्ती अस्ति चेत्
जयन्त्यः
समीचीनम् इदानीं स्पष्टं सम्यक्तया स्वीकरोतु अवगच्छतु अनन्तरम् इदानीं तृतीय स्थले पश्यतु द्वितीय द सेकेण्ड् रो विल् हाव् सम्बोधनरूपम् इग्नोर् इट् look at the third line. Look at the third line. Dvitiya Vibhakti Rupam is there in the third line. Gauri Shabdasya Ekavachanam Dvitiya Vibhakti Rupam Katam Bhavati?
Gaurim.
Gaurim. Nadi Shabdasya Dvitiya Vibhakti Ekavachana Rupam?
Nadim.
Bhagini Shabdasya Dvitiya Vibhakti Ekavachana Rupam?
Bhaginim.
Astu. Idanim गौरीं शब्दस्य बहुवचनरूपं कथं भवति इति पश्यामः. कथमस्ति गौरीं शब्दस्य बहुवचनं?
गौरीं शब्दस्य बहुवचनं गौरीः.
नदी शब्दस्य नदीं शब्दस्य बहुवचनं?
नदीः.
भगिनीं शब्दस्य बहुवचनं?
भगिनीः.
लेखनीं शब्दस्य बहुवचनं?
लेखनीः.
इदानीं भवती द्वादशवाक्यं स्वीकरोतु.
आं भगिनि.
वयं गणेशोत्सववासरे अत्र आवरणे किं पदमस्ति? भगिन्यः इति पदमस्ति. भगिन्यः कीदृशशब्दः? एकवचनं वा बहुवचनं वा?
भगिन्यः इकारान्त स्त्रीलिङ्ग भगिनी शब्दस्य एकवचनं. भगिन्यः बहुवचनं.
कुत्र अस्ति एतस्मिन् वा पुटे गौरी अस्ति किल? इदानीं पठितवन्तः पठितवती किल? तत्र कुत्र अस्ति बहुवचनरूपं? फस्ट् लैन् इन् द थर्ड् सेकेण्ड् लास्ट् वर्ड् गौर्यः. तस्य स्थाने भगिन्यः भवति.
आं भगिनि.
तस्य स्थाने भगिन्यः भवति.
आं भगिनि.
इदानीम् अग्रिमपदमस्ति जनन्यः इति अस्ति.
जनन्यः.
तद्वाक्यं तत् पदं कुत्र भवति एतस्मिन् पुटे? In the place of Gauryah, Jananyah will be there.
Aam bhagini. Janani,
bahuvachana rupam. Janani shabdasya bahuvachanam Jananyah.
Jananyah. Aam bhagini.
Udyogini iti asti. Gauri sthane udyogini iti asti svikaroto.
Udyogini, Gauri
sthane. Udyogini.
Udyogini, udyog. उद्योगिन्यैः.
उद्योगिन्यः.
उद्योगिन्यः.
गौर्यः इति स्थाने उद्योगिन्यः भवति.
उद्योगिन्यः.
सो वाट् हाव् दे गिवन् इन् दिस् एक्ससैस् इस् देट् दे हाव् गिवन् यू द बहुवचनं स्त्रीलिङ्ग बहुवचनरूपं प्रथमविभक्तिरूपम्.
आं भगिनि.
गौर्यः, जनन्यः, भगिन्यः, उद्योगिन्यः इति बहुवचनरूपं दत्तवन्तः. नौ वाट् इस् योर् टास्क्? यु हाव् टु चेञ्ज् द गौर्यः टु गौरीः.
गौरीः.
द्वितीयविभक्ति बहुवचनरूपम्. ओके. अस्तु, इदानीं गौर्यः अस्ति, तस्य बहुवचनरूपं कथं भवति?
गौर्यः, गौरी.
क्षम्यतां, मम दोषः अस्ति. गौर्यः इति शब्दस्य द्वितीयविभक्तिरूपं कथं भवति?
गौरीः.
आम्. नद्यः इति शब्दः अस्ति, तस्य द्वितीयविभक्तिरूपं कथं भवति?
नदीः.
तादृशमेव भगिन्यः इति अस्ति, तस्य द्वितीयविभक्तिरूपं?
भगिनीः.
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 आम्. जनन्यः इति अस्ति, तस्य बहुवचनं?
जननीः.
आम्. उद्योगिन्यः इति अस्ति,
उद्योगिनीः.
आम्. दट् इस् योर् आन्सर् नौ.
आं भगिनि, अवगतवती.
नौ वेन् वि आस्क् गौरी इस् अ प्रथमविभक्तिरूपं, तस्य तस्य द्वितीयविभक्तिरूपं नाम कथं भवति? यु हाव् टु से गौरीम्.
गौरीम्.
अण्ड् इफ् मै क्वश्चन् इस् गौर्यः okay Gauriya. And Gauriya, if the question is Gauriya, then tasya bahu tasya dvitiya vibhakti rupam katam bhavati nama, you have to say Gaurihi.
Gaurihi.
So here in when Mahodaya answered, all of his question was in pullinga shabda. And yours is in strilinga shabda, which is a mixture of akaranta and ikaranta. Now mahila is there, right? Mahila asti chet atra pashyatu. Mahila bhagini atra pashyatu.
Aam bhagini.
I have to enlarge it once again. Atra antima koshtaka pashyatu akaranta strilinga rama shabdah.
Aam bhagini.
Rama iti prathama vibhakti ekavachanam.
Aam bhagini.
Tasya bahuvachanam kim?
Ramaha.
Samichinam. Rama atra lata asti chet tasya bahuvachanam?
Lataha.
Astu. Kavita asti. Kavita iti shabdasya bahuvachanam?
Kavitaha.
Samichinam. Rama shabdasya dvitiya vibhakti rupam katam bhavati?
Ramam.
Lata shabdasya?
Latam.
Mala.
Malam.
Gita.
Gitam.
Astu. Idanim Ramaha iti shabdasya dvitiya vibhakti rupam?
Ramaha.
Lataha.
Lataha.
Sitaha.
Sitaha.
No changes.
Vedana.
Vedaha nasti. In Pratama Bhakti Rupam Bahuvachanam and Dvitiya Vibhakti Rupa Bahuvachanam Strilinga Shabdaha. Akaranta Strilinga Shabdaha asti chet Pratama Vibhakti Bahuvachanam Dvitiya Vibhakti Bahuvachanam Samana Meva. Vedaha nasti. I agree that it is easy to remember. If it's only one rule, it's easy to remember. But if there are many rules for many things, it is difficult. I agree. Madhu Bhagini, can you please mute? Yeah, thank you. Idanim avagachati va Bhagini?
Bhagini, avagachami.
I don't know why something...
Isharanta only confused.
Yeah, but now after understanding, are you clear?
आं भगिनि अद्य अहं जानामि
अवगच्छति किल
आं भगिनि
अस्तु केन् यु वाण्ट् डु यु वाण्ट् जस्ट् फार् ऐ अण्डर्स्टाण्ड् समथिङ्ग् इस् ओवर्वेल्मिङ्ग् बट् जस्ट् फार् यु अण्डर्स्टाण्डिङ्ग् डु यु वाण्ट् टु जस्ट् डु वन् मोर् सेण्टेन्स् भगिनि जस्ट् टु मेक् श्योर् इफ् यु अण्डर्स्टाण्ड् ओके
आं भगिनि
इफ् इट्स् अ लाट् यु केन् प्लीस् स्टाप् हियर् नो प्राब्लम् ऐ केन्
अण्डर्स्टाण्ड्
ऐ विल् मिनिमैस् दिस्
आं भगिनि
हियर् 13th sentence. Bhagini, ekanimishaka, we'll understand the sentence. Vayam Ganeshotsavavasare Bhaginihi Jananihi Mahilaha Udyoginihi Cha Griham Prati Ahvayamaha. Means we will invite all of these people to our house during Ganeshotsavam. That is what they are telling here. Udyoginyaha means a co-workers. Bhagini means sister, you know. Janani is mother. Other people. And Mahila, all the other ladies. Women. Women. Astu. Agre patato. 13th sentence.
Vayuhu. Purushaha. Mahilaha. Vrukshaha. Vanani. Gulmaha cha Prushati.
Okay, astu. Here, samichinam. Atra, Prushati is the kriyapadam. Etasmin vakye, Prushati nama, it just brushes
touches.
You. Touches you, yeah. Prushati. Atra, Purushaha iti asti kila?
Aam bhagini.
Tat padam, eka vachanam rupam va, bahuvachan rupam va?
Bahuvachan rupam.
अस्तु तस्य एकवचनरूपं कथं भवति
पुरुषः
समीचीनम् अस्तु अग्रे पठतु, अग्रे पश्यतु, महिलाः इति अस्ति.
आं भगिनि.
तस्य एकवचनरूपं कथं भवति?
महिला.
वेरि गुड्. अग्रे वृक्षाः इति अस्ति.
वृक्षः.
आं समीचीनं. वनानि इति अस्ति, तस्य एकवचनं?
वनम्.
गुल्माः इति अस्ति, तस्य एकवचनं?
गुल्मः.
समीचीनम्. इदानीं भवती एकवचनरूपं कृतवती. मम प्रश्नः अस्ति, योर् टास्क् नौ इस्, पुरुषाः इति बहुवचनरूपं भवति किल, तस्य द्वितीयविभक्तिरूपं कथं भवति?
पुरुषान्.
समीचीनम्. अग्रे?
महिलाः एव.
समीचीनम्.
वृक्षान्.
समीचीनम्.
वनानि. वनानि. वनानि एव.
आम् समीचीनम्.
गुल्माः. गुल्मान्.
आं समीचीनं, बहु समीचीनम्. इदानीं वाक्यशः पठतु कृपया एकवारं सम्यक्तया.
वायुः. पुरुषान्. महिलाः. वृक्षान्. वनानि. गुल्मान् च. पृशति.
आम् अत्र गुल्माः नाम बुश्.
बुश्. आं
भगिनि. च स्पृशति. अस्तु. When Mahodaya read the 11th sentence, the example, it was a perfect example to change all the words in the brackets. They were all given in the Pullinga Shabdaha, masculine rupam. In the 12th sentence, all the, your task was to change the Strilinga Shabdaha. And in the 13th sentence, Mishrana Abhyasaha. It has a mixture of Pullinga Shabdaha and Strilinga Shabdaha and Napumsakalinga Shabdaha. इदानीं स्पष्टं वा?
आं भगिनि.
अभ्यासः आवश्यकम्, अधिकम् अभ्यासः अपि एतत् पुस्तके अपि अस्ति. इदानीं स्पष्टं वा? नियमः स्पष्टं वा?
आं भगिनि, अवगच्छामि.
समीचीनम्. अस्तु, इदानीं रिलाक्स् करोतु. अस्तु, अग्रे कः अस्ति? अहं न, पद्मिनी भगिनी अस्ति, प्रगति भगिनी अस्ति किल. अस्तु, प्रगति भगिनी अस्ति वा?
आं भगिनि.
अस्तु, पठति वा अग्रे?
आम्. गोपालः कवयित्र्यः, गृहिण्यः, कर्मकर्यः च निमन्त्रयति. सो गोपालः कवयित्रीः, गृहिणीः, कर्मकरीः च निमन्त्रयति.
आम् समीचीनं. पुनः एकवारं वदति वा? कवित्रयः नाम पोयटस्, आङ्ग्लभाषायां पोयटस् इति वदामः किल, तदेव अर्थः. आम्. कवयित्रयः नाम तस्य बहु द्वितीयविभक्तिरूपं?
कवयित्रीः.
आम् समीचीनम्.
गृहिण्यः. गृहिण्यः तस्य द्वितीयविभक्ति बहुवचनरूपं. गृहिणीः.
समीचीनम्.
कर्मकर्यः तस्य द्वितीयविभक्ति बहुवचनरूपं कर्मकरीः.
समीचीनम्. अग्रे अपि पठति वा?
अहम् अङ्कन्यः, लेखन्यः, कर्तर्यः च कृतवान्. अहम् अङ्कनीः, लेखनीः, कर्तरीः च कृतवान्.
क्रीतवान्. क्रीतवान् नाम टु बै, हि बाट्. अस्तु, अग्रे अपि पठति वा भगिनि? एतत् पर्यन्तम् अभ्यासः अस्ति. कथं प्रथमविभक्ति एकवचनरूपम् अस्ति चेत् द्वितीयविभक्तौ कथं परिवर्तनं करणीयं, बहुवचन प्रथमविभक्ति बहुवचनम् अस्ति चेत् द्वितीयविभक्तौ कथं परिवर्तनीयम् इति अत्र अभ्यासः अस्ति. किञ्चित् अभ्यासः आवश्यकम् अस्ति चेत् अत्र कोष्टकम् अस्ति किल एतस्मिन् पुटे सर्वे पठन् दृष्ट्वा पठन्तु अभ्यासमपि करोतु एतस्मिन् पुटे एव सुलभः भवति. अस्तु अग्रे पठति वा भगिनि प्रगति भगिनि.
आं भगिनि कृतवान् जानाति आनीतवान् रामः यत् जानाति तत्
वन् मिनिट् भगिनि सम्भव यस् भगिनि
यत् जानाति तत् रैट् चिह्नेन यत् न जानाति तत् रोङ्ग् चिह्नेन च उपरि सूचितम् तथैव सः यत् आनीतवान् तत् रैट् चिह्नेन यत् न आनीतवान् तत् रोङ्ग् चिह्नेन च सूचितम्
रैट् राङ्ग् इति वदामः चेत् अत्र रैट् इति उचितचिह्नं दोषचिह्नम् इति वदामः साधारणतया उचितचिह्नं दोषचिह्नं
दोष. ओके अगेन ऐ हैव टु रीड.
न न चिन्ता मास्तु अवश्यकं नास्ति अवश्यकं नास्ति.
एतदाधारेण व्याख्यानि लिखत. रामः वेदान् जानाति.
किं कथं भवती उक्तवती वेदान् इति? प्रथमतया वेदाः इति एव अस्ति किल, किमर्थं वेदान् इति परिवर्तनं कृतवती?
वेदाः अत्र वेदाः प्रथमपुरुष बहुवचनरूपेण भवति. अस्य द्वितीया विभक्ति बहुवचनरूपं वेदान् भवति.
Here the exercise is to change all the words in the first column to bahuvachan to dvitiya vibhakti rupam. So in the first the first word is vedah. Vedah is vedah, vedah is a pullinga shabdah. So bhagini changed that to dvitiya vibhakti rupam. Vedah is bahuvachanam and tasya द्वितीय विभक्ति वेदान् अस्ति. ततः भगिनी प्रगति भगिनी रामः वेदान् जानाति इति उक्तवती. अस्तु अग्रे पठतु कृपया. आम्
रामः मन्त्रान् जानाति.
समीचीनं.
रामः शब्दान् न जानाति. रामः आपणान् जानाति.
आपणान् अस्तु अस्तु भगिनि.
रामः विज्ञानवार्तान् न जानाति.
विज्ञानवार्तान् न जानाति, समीचीनम्.
रामः चर्चान् न जानाति.
भगिनि एकनिमिषः, अत्र वार्ता इति शब्दः स्त्रीलिङ्गशब्दः अस्ति.
वार्ता यस् सो इट् विल् बि वार्ताः. वार्ताः
समीचीनम्. आम् समानमेव.
रामः विज्ञानवार्ताः न जानाति.
समीचीनम्.
चर्चा ओके यस् रामः चर्चाः न जानाति.
किमर्थं चर्चा स्त्रीलिङ्गशब्दः अस्ति. आम् समीचीनं.
रामः शास्त्राणि जानाति.
समीचीनं. तस्य पूर्वम् अन्य काव्यानि अपि अस्ति.
रामः रामः काव्यानि जानाति.
समीचीनम्.
रामः शास्त्राणि जानाति.
समीचीनम्.
रामः श्लोकान् न जानाति.
समीचीनं.
बिकास् श्लोकः श्लोकाः श्लोकं श्लोकान्.
बहु समीचीनं भगिनि.
रामः सदाचाराः जानाति.
हा, सदाचारः पुल्लिङ्गशब्दः अस्ति.
सदाचारान् जानाति.
समीचीनं. बहु समीचीनं भगिनि. धन्यवादः भगिनि.
धन्यवादः.
पद्मिनी भगिनी अस्ति वा?
आं भगिनि.
भगिनी अवगतवती वा कथं लेख करणीयम् इति?
आं भगिनि.
अस्तु.
फ्रम् 11th.
आम् 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 आम्.
स्यूताः बहुवचनरूपम् इस् स्यूतान् स्यूतान्
समीचीनं. आम् आम्.
कर्मपदम्. रामः स्यूतान् आनीतवान्.
समीचीनं.
रामः ग्रन्थान् आनीतवान्.
समीचीनं.
रामः सुधाघण्टान् गण्डान् आनीतवान्.
सुधाखण्डान्
खण्डान्. रामः पुस्तकानि.
पुनः एकवारं वदतु. रामः सुधा
सुधाघण्डा सुधाघण्डः पुल्लिङ्गशब्दः.
समीचीनं.
सुधाघण्टान् बहुवचनं कर्मपदरूपम्.
न आनीतवान् अत्र दोषचिह्नम् अस्ति अतः न आनीतवान्.
न आनीतवान्. ओके. न आनीतवान्. रामः पुस्तकानि समानमेव. पुस्तकानि न आनीतवान्.
समीचीनम्.
रामः यानपेटिकाः न आनीतवान्.
समीचीनं. बहु समीचीनं.
रामः अङ्कनीः आनीतवान्. रामः लेखनीः न आनीतवान्.
समीचीनम्.
रामः घटीः न आनीतवान्.
न न अत्र आनीतवान्.
आनीतवान्. आनीतवान्. रामः कर्तरीः न आनीतवान्.
समीचीनं.
रामः पत्रिकाः आनीतवान्.
बहु समीचीनं. बहु समीचीनम्. अनेकान् विषयान् स्मृत्वा स्मृत्वा भवती उक्तवती. बहु समीचीनं भगिनि.
थेङ्क् यू. धन्यवादः भगिनि.
धन्यवादः. अस्तु. अन्य कोऽपि अस्ति वा? अहं न आह्वानं कृतवती वा? Is there anybody who's left out whom I did not call to participate in the class? Savita bhagini asti va idanim bhavati bhagamodum shaknoti va?
Bhagini, are you able to hear me?
Yes, it's very clear now. Very very clear now.
Yeah, yeah. Okay,
thank you. Yeah. So yeah, in the next page. Which, sorry, once again I changed to, yeah, I will reduce the size. Can I make sure? अस्तु. पठति वा?
ओके. अधः यानि वाक्यानि निर्दिष्टानि तेषु गोविन्दः क्रियां कृतवान् वा न वा इति उचितचिह्ने दोषचिह्न ओके उचितचिह्न दोषचिह्न द्वयं सूचयति. कर्मपदस्य प्रथमा विभक्तिरूपम् अपि निर्दिष्टम् अस्ति. ओके. एतादश दशारेण
एतदाधारेण
एतदाधारेण ओके द्वितीया विभक्ति विभक्तियुक्तानि वाक्यानि लिखत.
समीचीनम्. अस्तु.
ओके. उदाहरण गोविन्दः प्राध्यापकः प्राध्यापकाः दृष्टवान्
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 एकनिमिषः अत्र अस्ति गोविन्दः प्रध्यापकाः दृष्टवान्. अत्र दोषचिह्नम् अस्ति,
दोषचिह्नम् अस्ति. ओके,
भवती कथं लिखति वदतु.
ओके, गो नेक्स्ट् वन्.
उत्तरं वदतु, उत्तरं वदतु.
गोविन्दः प्रध्यापकाः दृष्टवान्.
अस्तु,
ओके, दृष्टवन्तः.
वाक्यम् अस्ति गोविन्दः प्रध्यापकाः दृष्टवान् इति वाक्यम् अस्ति.
अस्ति,
अत्र दोषचिह्नम् अपि अस्ति. कथं लेखनीयं? गोविन्दः प्रध्यापकाः इति शब्दस्य द्वितीयविभक्तिरूपं कथं भवति?
ओके, ओके, प्रध्यापकान्.
प्रध्यापकाः इति शब्दस्य द्वितीयविभक्तिरूपं प्रध्यापकान्.
प्रध्यापकान्, ओके, ओके.
दोषचिह्नम् अस्ति किल, अतः न दृष्टवान् इति वदनीयम्.
ओ ओके, ओके, दे हैव जस्ट गिवन हियर गोविन्दः प्रध्यापकान् न दृष्टवान्.
आम् आम् आम्.
Okay, I'll have to change this to an okay. Okay, okay.
Idanim uda this is an example. Agre patatu.
Okay. Govindaha panditaha drushtavan. Okay. Govindaha panditan drushtavan.
Samichinam satyam.
Okay. Govindaha granthaha parishilitavan. Govindaha ग्रन्थान् न परिशीलितवान्.
समीचीनम्.
ओके, गोविन्दः केशसूच्याः क्रीतवान्. ओके, गोविन्दः केशसूचीः कृतवान्.
क्रीतवान्,
इट्स् रैट्, सूची.
समीचीनम्.
क्रीतवान्,
क्रीतवान् नाम बाट्.
गोविन्द, ओके, ओके,
केशसूची नाम हेर्पिन्.
गोविन्दः उपन्यासाः कृतवान्. गोविन्दः उपन्यासान् न कृतवान्.
समीचीनम्.
ओके, गोविन्दः चिन्तनगोष्ठ्य how do you
chintana goshtiyah chintana goshti thinkers group thinkers group goshti nama goshti nama group
group okay
chintana goshtiyah nama thinkers group
okay okay govindah chintana goshtihi na gatavan
samichinam
okay govindah balikah ताडितवान्. गोविन्दः बालिकाः ताडितवान्.
समीचीनं, समीचीनं.
ओके, ओके, गोविन्दः बहु विधा कथाः श्रुतवान्. गोविन्दः बहुविध कथाः श्रुतवान्.
समीचीनम्.
ओके, गोविन्दः कदम्ब कादम्बर्यः पठितवान्. गोविन्दः कादम्बरीः पठितवान्. न पठितवान्, न पठितवान्. ओके, ओके, गोविन्दः यः पत्रिकाः पठितवान्. गोविन्दः यः पत्रिकाः पठितवान्.
समीचीनम्.
ओके, गोविन्दः बान्धवाः सत्कृतवान्. ओके,
सत्कृतवान् नाम आनर्ड्, हि आनर्ड्.
ओके, ओके,
हि आनर्ड् बान्धवाः नाम रिलेटिव्स्. गोविन्दः बान्धवाः सत्कृतवान्.
ओके, ओके, गोविन्दः बान्धवान् सत्कृतवान्.
आम्, इदानीं समीचीनं. बहु समी अवगच्छ अवगच्छति वा भगिनि?
अवगच्छामि भगिनि.
समीचीनं, समीचीनम्.
धन्यवादः
भगिनि.
धन्यवादः भगिनि.
राधिका भगिनि.
आं भगिनि,
एतत् पठति वा अग्रे?
अतः यानि वाक्यानि निर्दिष्टानि तेषु
तद् वयं पठि कृतवन्तः
ओके. अतः एकं सम्भाषणम् अस्ति. सम्भाषणं पठत. आवरणे विद्यमानानां शब्दानाम् उचितानि रूपाणि रिक्ते स्थले लिखत. गीता, ह्यः भवती किमर्थं विद्यालयः न आगतवती?
एकनिमिषः भवती भगिनी भवती गीता इति स्वीकरोतु. अग्रे पद्मिनी भगिनी माला इति पठति वा?
आं भगिनि.
अस्तु, आरम्भं करोतु पुनः एकवारम्.
ओके, गीता, ह्यः भवती किमर्थं विद्यालयः न आगतवती? ह्यः
परिवर्तनेन एव वदतु, पठतु कृपया.
ओके, विद्यालयं न आगतवती माला?
ह्यः अहं ग्रामं गतवती आसम्.
ग्रामं किमर्थं गतवती भवती?
प्रतिवर्ष्यं मम पितामहः देवपूजां करोति, अतः अहं ग्रामं गतवती.
अत्र प्रतिवर्षं मम पितामहः देवीपूजां करोति, अतः अहं देवीपूजां करोति, अतः अहं ग्रामं गतवती. समीचीनं.
ग्रामे भवती किं किं कृतवती?
अहं ग्रामे लीलां लतां च दृष्टवती. अहम् अपि पूजां कृतवती. पितामहेन सह सम्भाषणं कृतवती.
बीजपूरवृक्षः नाम इट् कुड् ऐदर् मीन् पोमोग्रानेट् ट्री आर् गोवा ट्री.
बीजपूरवृक्षं आरुह्य फलानि खादितवती. अस्तु, ह्यः अध्यापकः
कः इति शब्दस्य द्वितीयविभक्तिरूपं कम्.
कम् कम् पाठितवान्.
अहम् एकवारम् एतद् वदामि, पुनः पठामि. गीता पृच्छति, ग्रामे भवती किं किं कृतवती इति गीता पृच्छति. अत माला वदति, अहं ग्रामे लीलां लतां च दृष्टवती. अहमपि पूजां कृतवती. पितामहेन सह सम्भाषणं कृतवती. बीजापुरवृक्षम् आरुह्य फलानि खादितवती. मीनि शि क्लैम्ड् द ट्री एण्ड् गाट् दि फ्रूट्स्. बीजापुरवृक्षम् आरुह्य फलानि खादितवती. अस्तु, ह्यः अध्यापकः कं पाठं पाठितवान्? नाम विच् लेसन् डिड् द टीचर् टीच् यस्टर्डे इन् द क्लास्? अस्तु, गीता किं वदति?
ह्यः अध्यापकः पाठं न पाठितवान्, अपि तु श्लोकान् पाठितवान्.
आम्, समीचीनं. माला
मेडम्, वन् डौट् इट्स् किम् अर्थं मेडम्?
पाठः इति शब्दः पुल्लिङ्गशब्दः किल, तस्य विशेषणं
कः? नाट् दिस् वन्, नाट् दिस्. अस्तु, ह्यः अध्यापकः कः पाठं?
कम् एव, कम् कम् कः कः इति शब्दस्य द्वितीयविभक्तिरूपं कम्.
ओके,
ऐ काण्ट् सी.
ओ, क्षम्यताम्. आमां, स्क्रोल् करोमि. ओ ओ ओ, one second. Okay. इदानीं स्पष्टं वा भगिनि? सम्यक्तया दृश्यते वा?
It's not connecting to me yet.
अस्तु. माला वदति.
Yes.
भगिनी पठति वा?
न भगिनि, it's not visible to me.
Not coming? अस्तु. तृतीयपाठस्य आम् आम् पठतु.
माला तृतीयपाठस्य विषये सः प्रश्नान् पृष्टवान् वा? गीता आम् सः प्रश्नान् पृष्टवान्, वयम् उत्तराणि उक्तवन्तः. ह्यः गायत्री किं कक्ष्याम् आगतवती? आम् सा नूतनं चोलं चिचोलं च धृत्वा आगतवती. ह्यः तस्याः जन्मदिनम्, अतः सा सर्वेभ्यः चाकलेहं अतः सा सर्वेभ्यः चाकलेहान् दत्तवती. सा अध्यापकान् नमस्कृतवती, अध्यापकान् आशीर्वादान् कृतवन्तः. वयम् अभिनन्दनानि उक्तवन्तः.
वयम् अभिनन्दनवचनानि
अभिनन्दनवचनानि उक्तवन्तः. सारि
मेडम्, न चिन्ता मास्तु, चिन्ता मास्तु. एतत् स्पष्टं वा? एतत् सम्भाषणं सुलभः अस्ति. कथं द्वितीयविभक्ति उपयुज्य सम्भाषणं करणीयम् इति अत्र उदाहरणम् अस्ति. गृहपाठरूपेण अहं नूतनगृहपाठं न ददामि, परन्तु किं वयं गृहे पठितवन्तः तदेव इतोपि चिन्तनं कृत्वा आगच्छन्तु अग्रिमवासरे. अस्तु, इतोपि अभ्यासम् आवश्यकम् अस्ति चेत् इदानीम् अकारान्त इकारान्त स्त्रीलिङ्गशब्दस्य विषये वयं पठितवन्तः किल, तद्विषये एव अहं इतोपि वाक्य पदानि ददामि, तद् परिवर्तनेन अभ्यासं कुर्वन्तु सर्वे. अस्तु, प्रश्नाः सन्ति वा? अवगच्छति वा भगिनी पद्मिनी भगिनी? रविमहोदय, माधवी भगिनी, विरामः वा? प्रश्नः अस्ति वा?
न भगिनि, प्रश्नः नास्ति.
अस्तु, किञ्चित् गृहे अभ्यासं करोतु. यद्वयं कृतवन्तः कक्षा अद्य तदेव तद्विषये एव चिन्तनं करोतु, सुलभः भवति. अस्तु, प्रश्नः अस्ति चेत् पृच्छन्तु. अस्तु, धन्यवादः, अग्रिमवासरे मिलामः. धन्यवादः भगिनि, नमस्कारः.
शुभदिनं भगिनि.
धन्यवादः भगिनि, धन्यवादः.